इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी रियो डी जेनेरियो नगरे G20 इत्येतस्य शिखरसम्मेलनावधौ ब्रिटेन, इटली, फ्रांस, नॉर्वे, पुर्तगाल, इण्डोनेशिया देशानां नेतृभिस्साकं सम्बन्धान् सुदृढीकर्तुं विविधेषु उपायेषु मन्त्रणां कृतवान्। श्रीमोदी ह्यः रात्रौ स्वीयेन ब्रिटेनदेशीयेन समकक्षेण कीर स्टार्मर इत्यनेन सह एकं महत्वपूर्णम् उपवेशनं विहितवान्। श्रीमोदिना एकस्मिन् सामाजिक सन्देशपटले लिखितं यत् ब्रिटेनदेशेन साकं विपुलं रणनीतिक सहभागित्वं प्राथम्येन गण्यते। अत्रावसरे प्रधानमन्त्री फ्रांसदेशस्य राष्ट्रपतिना इमैनुअल मैक्रो इत्यमुना सहापि मेलनं कृतवान्। अथ च पैरिस ओलंपिक पैरालंपिक क्रीडाकुम्भस्य सफलायोजनाय तस्मै वर्धापनानि अयच्छत्। श्रीमोदी तस्य च इटली देशीया प्रधानमन्त्री जॉर्जिया मेलोनी इत्येषा द्विपक्षीयोपवेशनं समनुष्ठितवन्तौ, यद्धि उभयोः देशयोः मध्ये रक्षा सुरक्षा व्यापार इत्यादिषु क्षेत्रेषु गहनतया केन्द्रितम् आसीत्। तदनु प्रधानमन्त्री नरेन्द्रमोदी भारत इटली संयुक्त कार्ययोजनायाः अपि स्वागतं व्याहरत्। एतदनन्तरं श्रीमोदी स्वकीयेन नॉर्वे देशीयेन समकक्षेण जोनास गहर स्टोरे इत्यमुना साकं मन्त्रणां कृतवान्। उभौ नेतारौ नवाचार अनुसन्धान नवीकरणीयोर्जा विषयान् समेत्य विविधेभ्यः समसामायिक प्रसंगेभ्यः चर्चां कृतवन्तौ। एवमेव प्रधानमन्त्री इण्डोनेशिया देशीयेन राष्ट्रपतिना प्रबोबो सुबियांटो इत्यनेन अथ च पुर्तगाल देशस्य प्रधानमन्त्रिणा लुइस मोंटेनग्रो इत्यमुना साकमपि प्रसंगेषु विभिन्नेषु चर्चां समाचरितवान्। नवदशतमं G20 इति शिखरसम्मेलनं ह्यः ब्राजीलदेशस्य रियो डी जेनेरियो नगरे बुभुक्षा निर्धनता असमानतानां विषयान् अवलम्ब्य समारब्धम्। प्रधानमन्त्री नरेन्द्रमोदी बुभुक्षा निर्धनतां विरुध्य वैश्विक एकरूपता इत्यस्मिन् शीर्षकाधारितस्य शिखरसम्मेलनस्य प्रथमे पूर्णसत्रे भागं स्वीकृतवान्। अत्रावसरे श्रीमोदी ख्यापितवान् यत् एका पृथिवी एकः कुटुम्बः एकं भविष्यं G20 ब्राजील शिखरसम्मेलने तावत् प्रासंगिको वर्तते यावत् विगतवर्षे दिल्ल्याम् आयोजिते शिखरसम्मेलने आसीत्। असौ सन्तोषं प्रकटितवान् यत् एतत् शिखरसम्मेलनं सततविकासलक्ष्येभ्यः प्राथमिकताम् अददात्। इतः प्राक् प्रधानमन्त्रिणः नरेन्द्रमोदिनः ब्राजीलदेशस्य राष्ट्रपतिः लूलादा सिल्वा इत्येषः आयोजनस्थले स्वागतं कृतवान्। ध्यातव्यमस्ति यत् अस्य वर्षस्य शिखरसम्मेलनस्य ध्येयबिन्दुः अस्ति एकस्य न्याययुतस्य सातत्ययुतस्य च विश्वस्य निर्माणमिति। केन्द्रीय गृहमन्त्री अमितशाहः अद्य गांधीनगरे राष्ट्रिय रक्षा विश्वविद्यालये अखिल भारतीय आरक्षि विज्ञान कांग्रेस इत्येतस्य स्वर्णजयन्ती संस्करणम् उद्घाटयिष्यति। एतस्मिन् कार्यक्रमे मुख्यमन्त्री भूपेन्द्र पटेलः अपि उपस्थितो भविष्यति। गुजरातस्य द्विदिवसीय यात्रायां समागतः श्रीशाहः अद्य गुजरातराज्ये अनेके प्रमुख कार्यक्रमेषु सम्मिलितं भविष्यति। सर्वोच्च न्यायालयेन दिल्ल्याः अपि च निकटवर्तीनां राज्यानां प्रशासनं निर्दिष्टं यत् तैः राष्ट्रिय राजधानी क्षेत्रे प्रदूषणस्य वर्धमानस्तरं न्यूनीकर्तुं ग्रेडेड रिस्पॉन्स एक्शन प्लान इत्येतस्य चतुर्थ चरणस्य अन्तर्गतं प्रतिबन्धान् नियोजयितुं अनुक्षणमेव दलानि नियुक्तव्यानि इति। झारखण्ड महाराष्ट्रयोः विधानसभा निर्वाचनाय प्रचाराभियानं ह्यः सायं सम्पन्नम्। झारखण्डे विधानसभा निर्वाचनस्य द्वितीये चरणे 38 निर्वाचनासनेभ्यः मतदानं भविष्यति। महाराष्ट्रस्य च सर्वेषु 88 निर्वाचनासनेभ्यः एकस्मिन् एव चरणे मतदानं भविष्यति। इति वार्ताः।